ॐ श्रीगणेशाय नमः। श्रीशिवमहापुराणम् रुद्रसंहिता सतीखण्डम् पत्तन्बुदावदध्यायम् आरम्भम्। ॐ ब्रह्मोवाच कृत्वा दक्षसुतादानं यौतकं विविधं ददौ हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् अथ शम्भम् उदागत्य समुत्थाय कृताञ्जलिः सार्धं कमलया चेदम् उवाच गरुडध्वजः विष्णुरुवाच देवदेव महादेव करुणासागर प्रभो त्वं पिता जगतां तात सती माताखिलस्य च युवां लीलावतारौ वै सतां क्षेमाय सर्वदा खलानां निग्रहार्थाय श्रुतिरेषा सनातनी स्निग्धनीलाञ्जनश्यामशोभया शोभसे हर दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया देवानां वा नृणां रक्षां कुरु सत्यानया सतां संसारसारिणां शम्भो मङ्गलं सर्वदा तथा य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् तं हन्याः सर्वभूतेश विज्ञप्तिरिति मे प्रभो। ब्रह्मोवाच इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः एवमस्ति सर्वज्ञः प्रोवाच मधुसूदनम् स्वस्थानं हरिरागत्य स्थित आसीन् मुनीश्वर उत्सवं कारयामास जगोपचरितं च तद् अहं देवीं समागत्य गृह्योक्त विधिनाखिलम् अग्निकार्यं यथोदिष्टम् अकार्षं च सुविस्तरं ततः शिवा शिवश्चैव यथा विधिपहृष्टवत् अग्नेः प्रदक्षिणं चक्रे मदाचार्य द्विजाज्ञया तदा महोत्सवस्तत्राद्भुतो भूद्विजसत्तम सर्वेषां सुखदं चाद्यं गीतनृत्यपुरःसरं तदानीमद्भुतं तत्र चरितं समभूदति सुविस्मयकरं तादत्तच्छृणुत्वं वदामि ते दुर्ज्ञेया शाम्भवी माया तया सम्मोहितं जगत् सचराचरमत्यन्तं सदेवासुरमानुषं योऽहं शम्भुं मोहयितुं पुरैच्छं कपटेनः मां च तं शङ्करस्तात मोहयामास लीलया इच्छेत्परापकारं यः स तस्यैव भवेद्ध्रुवम् इति मत्वापकारं नो कुर्यादन्यस्य पूरुषः प्रदक्षिणां प्रकुर्वन्त्या वह्नेः सत्याः पदद्वयम् आविर्बभूव वसनात् तद्दद्राक्षमहं मुने मदनाविष्टचेताश्च भूत्वाङ्गानि व्यलोकयम् अहं सत्या द्विजश्रेष्ठ शिवमाया विमोहितः यथा यथाहं रम्यानि वैक्षमङ्गानि कौतुकात् सत्याबभूव संहृष्ट कामार्तो हि तथा तथा अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रतां स्मराविष्टमना वक्त्रं द्रष्टुकामो भवं मुने न शम्भोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितं न च सा लज्जया विष्टा करोति प्रकटं मुखं ततस्तद्दर्शनार्थाय सदुपायं विचारयन् धूम्रघोरेण कामार्तोकार्षं तच्च ततः परम् आर्द्रैर्धनानि भूरीणि क्षिप्त्वा तत्र विभावसौ स्वल्पाज्याहुदिविन्यासात् आर्द्रद्रव्योद्भवस्तथा प्रादर्भूतस्ततो धूमो भूयांस्तत्र समन्ततः तादृग्येन तमोभूतं वेदी भूमिविनिर्मितं ततो धूमाकुले नेत्रे महेशः परमेश्वरः हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ततो वस्त्रं समुत्क्षिप्य सती वक्त्रमहं मुने अवेक्षं किल कामार्तः प्रहृष्टेनान्तरात्मना मुहुर्मुहुरहं तात पश्यामि स्म सती मुखम् अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः अमरेतः प्रचस्कन्द ततस्तद्वीक्षणाद्रुतं चतुर्बिन्दुमितर्भूमौ तुषारचय सन्निभं ततोऽहं शङ्कितो मौनी तत्क्षणं विस्मितो मुने आच्छादये स तद्रेतौ यथा कश्चिद्बोधन अथ तद्भगवान् शम्भुर्ज्ञात्वा दिव्येन चक्षुषा रेतोवस्कन्दनात्तस्य कोपादेतद् उवाचः रुद्र उवाच किमेतद्विहितं पापत्वया कर्म विगर्हितं विवाहे मम कान्ताया वक्त्रं दृष्टं न रागतः त्वं वेति शङ्करेणैतत्कर्म ज्ञातं न किञ्चन त्रैलोक्येऽपि न मे ज्ञातं गूढं तस्मात् कथं विधे यत्किञ्चित् त्रिषु लोकेषु जङ्गमं स्थावरं तथा तस्याहं मध्यगो गूढतैलं यद्वत्तिलान्तिकम्। ब्रह्मोवाच इत्युक्त्वा प्रियविष्णुर्मां तदा विष्णुवच स्मरन् इयेष हन्तुं ब्रह्मानं शूलमुद्यम्य शङ्करः शम्भुनोद्यमिते शूले मां च हन्तुं द्विजोत्तम मरीचि प्रमुखास्ते वै हाहाकारं च चक्रिरे ततो देवगणाः सर्वे मुनयश्चाखिलास्तथा तुष्टुः शङ्करं तत्र प्रज्वलन्तं भयातुराः देवावूचुः देवदेव महादेव शरणागतवत्सल ब्रह्मानं रक्ष रक्षेश कृपां कुरु महेश्वर जगत्पिता महेशत्वं जगन्माता सतीमता हरिब्रह्मादयः सर्वे तव दासा सुरप्रभो अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर ब्रह्मोवाच इत्थं बहुतरं दीना निर्जरा मुनयश्च ते तुष्टुवुर्देव देवेशं क्रोधाविष्टं महेश्वरं दक्षोमैवं मैवमिति पाणिमुद्यम्य शङ्कितः वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः अथाग्रे सङ्गतं वीक्ष्य तदा दक्षं महेश्वरः प्रत्युवाच प्रियवद्भिरमिदं संस्मरन् प्रार्थनां हरेः महेश्वर उवाच विष्णुनामेति भक्तेन यदिदानीमुदीरितं ममाप्यङ्गीकृतं कर्तुं तदिहैव प्रजापते सतीं यस्याभिलाषः सन् वीक्षेदवधतं प्रभो इति विष्णुवचः सत्यं विधिं हत्वा करोम्यहम् साभिलाषकथं ब्रह्मा सतीं समवलोकयत् अभवत्यक्तरेतास्तु ततो हन्मीकृतागसं ब्रह्मोवाच इत्युक्तवति देवे च महेशे क्रोधसंकुले चकम्पिरे जनाः सर्वे सदेव मुनिमानुषाः हाहाकारो महानासीद् औदासीन्यं च सर्वशः अभूवं विकलोऽतीव तदाहं तद्विमोहकः अथ विष्णुर्महेशादिप्रियः कार्यविचक्षणः तमेवं वादिनं रुद्रं तुष्टाव प्रणतः सुधीः स्तुत्वा च विविधैः स्तोत्रैः शङ्करं भक्तवत्सलम् इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरःसरः विष्णुरुवाच विधि न जहि भूते च स्रष्टारं जगतां प्रभुम् अयं शरणगस्तेद्य शरणागतवत्सलः अहं तेति प्रियो भक्तो भक्तराज इदीरितः विज्ञप्तिं हृदि मे मत्वा कृपां कुरु ममोपरि अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितं तन्मनुष्यमहेशान कृपां कृत्वा ममोपरि प्रजा सृष्टिमयं शम्भो प्रादर्भूतश्चतुर्मुखः अस्मिन् हरे प्रजा सृष्टा नास्त्यन्यः प्राकृतोऽधुना सृष्टिस्थित्यन्तकर्माणि करिष्यामः पुनः पुनः त्रयो देवा वयं नाथ शिवरूपत्वदाज्ञया एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति तस्मान्नवध्यो भवता सृष्टिकृल्लयकृद्विभो अनेनैव सती कन्या दक्षस्य च शिवा विभो तदुपायेन वै भार्या भवदर्थे प्रकल्पिता ब्रह्मोवाच इत्याकर्ण्यमहेशस्तु विज्ञप्तिं विष्णुना कृताम् प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः महेश उवाच देवदेव रमेशान विष्णो मत्प्राणवल्लभ न निवारय मां तातवधादस्य खलस्त्वयम् पूरयिष्यामि विज्ञप्तिं पूर्वान्तेऽङ्गीकृताम् मया महापापकरं दुष्टं हन्यैनं चतुराननम् अहमेव प्रजाः स्रक्ष्ये सर्वा स्थिरचरा अपि अन्यं स्रक्ष्ये सृष्टिकरम् अथवाहं स्वतेजसा हत्वैनं विधि मेवाहं स्वपनं पूरयन् कृतं स्रष्टारमेकं स्रक्ष्यामि न निवारय मेष मां ब्रह्मोवाच इति तस्य वचः श्रुत्वा गिरिशस्याः चाच्युतः स्मितप्रभिन्नहृदयः पुनर्मैवम् इतीरयन् अच्युत उवाच प्रतिज्ञा पूरणं योग्यं परस्मिन् पुरुषेऽस्ति वै विचारयस्तवध्येश भवत्यात्मनि न प्रभो त्रयो देवा वयं शम्भो त्वदात्मानः परा न हि एकरूपा न भिन्ना च तत्त्वतः सुविचारय ततस्तद्वचनं श्रुत्वा विष्णो स्वातिप्रियस्य सह शम्भुरूचे पुनस्तं वै ख्यापयन् आत्मनो गतिं शम्भुरुवाच हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम लक्ष्यते भिन्न एवायं प्रत्यक्षेनाग्रतस्थितः ब्रह्मोवाच इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा इदमूचे महादेवं तोषयन् गरुडध्वजः विष्णुरुवाच न ब्रह्मा भवतो भिन्नो न त्वं तस्मात् सदाशिव न वाहं भवतो भिन्नो न मत्वं परमेश्वर सर्वं जानासि सर्वज्ञ परमेश सदाशिव मन्मुखादखिलान् सर्वं संश्रावयितुमिच्छसि त्वदाज्ञया वदामीश शृण्वन्तु निखिलाः सुराः मुनयश्चापरे शैवं तत्त्वं सन्धार्य स्वं मनः प्रधानस्याप्रधानस्य भागाभागस्य रूपिणः ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः कस्त्वं कोऽहं च को ब्रह्म तवैव परमात्मनः अंशत्रयमिदं भिन्नं सृष्टिस्थित्यन्तकारणं चिन्तय स्वात्मनात्मानं स्वलीलाधृत विग्रहः एकस्त्वं ब्रह्म सगुणो ह्यंश भूता वयं त्रयः शिरोर्ग्नीवादिभेदेव यथैकस्यैव वर्ष्मणः अङ्गानि तेदभेशस्य तस्य भगत्रयं हर यज्ज्योतिरभ्रंस्वपुरं पुराणं कूटस्थमव्यक्तमनन्तरूपं नित्यं च दीर्घादिविदेशनाजीहीरं शिवस्त्वं तत एव सर्वं ब्रह्मोवाच एतच्छ्रुत्वा च वस्तस्य महादेवो मुनीश्वर बभूव सुप्रसन्नश्च न जघान समां ततः इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सती खण्डे सती विवाह शिवलीलावर्णनम् नाम एकोनविंशोऽध्यायः ओम् ശിവമഹാപുരാണത്തിൽ രുദ്രസംഹിതയിൽ സതീഖണ്ഡത്തിൽ 19-ാമത് അധ്യായം പൂർത്തി. ഓം.